इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधीतिवारि। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य वारसा नगरे स्वकीयेन समकक्षेण पोलैण्डदेशीयेन प्रधानमन्त्रिणा डोनाल्ड टस्क इत्यमुना सह प्रतिनिधिमण्डलस्तरीयां वार्तां विधास्यति। अवधेयं वर्तते यत् प्रधानमन्त्री श्रीमोदी पोलैण्डदेशस्य आधिकारिकयात्रां प्रति गतवान्। आशास्यते यत् उभौ नेतारौ द्विपक्षीय सम्बन्धानां समीक्षां करिष्यतः अथ च अनेकेषु पक्षेषु विचाराणाम् आदानप्रदानम् अपि विधास्यतः। श्रीमोदी तदनन्तरं पोलैण्डदेशीयेन राष्ट्रपतिना एन्ड्रेस डूडा इत्यनेन सहापि मेलनं करिष्यति। कार्यक्रमात् एतस्मात् प्राक् प्रधानमन्त्रिणः श्रीमोदिनः भव्यं स्वागतमपि भविष्यति। असौ अज्ञातसैनिकेभ्यः पुष्पाञ्जलिं समर्पयिष्यति। प्रधानमन्त्री श्रीमोदी ह्यः रात्रौ वारसानगरे प्रवासिनः भारतीयान् सम्बोधयन् न्यगादीत् यत् अद्यत्वे समये भारतम् अन्यैः देशैः सहास्ति, अपि च सर्वेषां कल्याणं विकासं च वाञ्छति। प्रधानमन्त्री अग्रे प्रख्यापितवान् यत् भारतस्य दृष्टिकोणं स्पष्टमस्ति, यतोहि अयं देशः युद्धं न वाञ्छति, क्षेत्रेषु च शान्तिं स्थापयितुं निरतोऽपि विद्यते। ध्यातव्यमस्ति यत् श्रीमोदी द्वयोः देशयोः पोलैण्ड युक्रेनयोः निजाधिकारिकयात्रायाः प्रथमे चरणे ह्यः वारसानगरं सम्प्राप्तवान्। निर्वाचनायोगेन हरियाणाराज्ये रिक्तप्रक्रियायाः परिणामस्य घोषणा, राज्ये विधानसभानिर्वाचनं यावत् स्थगीकृता। आयोगेन हरियाणारक्षिबले 600+5000 रिक्तेषु, हरियाणालोकसेवाद्वारा च विभिन्नेषु पदेषु पूरणप्रक्रियायाम् आदर्शाचारसंहितायाः कथितोल्लंघनस्य विषये संज्ञानम् अधिगतम्। ध्येयं वर्तते यत् कांग्रेसनेता जयराम रमेशः अस्मिन् प्रकरणे परिवेदनां प्रख्यापितवान्। राष्ट्रपतिपदासीना द्रौपदी मुर्मू वर्या दूरस्थेषु क्षेत्रेषु प्राप्तान्तर्जालस्य कारणेन आन्तर्जालिक वृत्त्यवसरस्य सृजनस्य प्रशंसां कृतवती। हरियाणाराज्यस्य फरीदाबादनगरे जेसी बोस विज्ञान प्रौद्योगिकीय विश्वविद्यालयस्य पञ्चमं दीक्षांत समारोहं सम्बोधयन्ती राष्ट्रपतिः उक्तवती यत् समग्रं विश्वं चतुर्थ्याः औद्योगिक क्रान्तेः युगे अस्ति, एवमेव भारतदेशः अपि प्राप्तावसराणां लाभं गृहीतुं समाह्वानानि च दूरीकर्तुं सज्जो वर्तते। भारतर्तु विज्ञान विभागेन आगामिषु केषुचित् दिवसेषु असम मेघालय त्रिपुरा राज्येषु अतिवृष्टिः अनुमानिता। चतुर्विंशति होरावधौ केरलराज्ये लक्षद्वीपे च अत्यधिकं वृष्टेः सम्भावना प्रकटिता। विभागेन उत्तराखण्ड जम्मू कश्मीर लद्दाख हिमाचलप्रदेश उत्तरप्रदेश पूर्वीय राजस्थान पंजाब हरियाणा दिल्ली राज्येषु मध्यमस्तरीयाः वृष्टिः पूर्वानुमानिता अस्ति। शुक्रवासरे देशे प्रथमः राष्ट्रियः अन्तरिक्ष दिवसः आचर्यते। अस्मिन् वर्षे अस्य महोत्सवस्य विषयो विद्यते चन्द्रस्पर्शनेन जीवनस्पर्शनम्, भारतस्य अन्तरिक्षगाथा इति। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः नवदिल्लीस्थे भारतमण्डपे आयोजितस्य मुख्य कार्यक्रमस्य उद्घाटनं करिष्यति। अन्तरिक्ष राज्यमन्त्री डॉ जितेन्द्रसिंहः ह्यः वार्ताहर सम्मेलनं सम्बोधयन् अवदत् यत् गतवर्षे अस्मिन् दिने चन्द्रयान तृतीयस्य प्रक्षेपणसमये विक्रम लैंडर इत्यस्य चन्द्रमसि सुरक्षितं सरलं च अवरोहणं जातम्। तेनोदीरितं यत् भारतं चन्द्रमसि अवतीर्य चतुर्थः देशः सञ्जातः। चन्द्रमसः दक्षिण ध्रुव प्रदेशस्य समीपे अवतीर्य प्रथमः देशः च अभवत् इति वार्ताः।